तर्हि नमस्कारः, सर्वेषां स्वागतम् अस्ति. अद्यतनवर्गः 2019 वर्गः इत्युक्ते नूतनवर्गः. यः वर्गः रक्षाभगिन्या चालितम् आसीत्, अद्य अहं विद्याशङ्करमहोदय अद्य चालयामि. तत्र मया के कान् विषयान् मया के विषयाः अस्माभिः अद्य चिन्तनं करणीयम् इति मया प्राप्तं. तत्र एकविंशतितमे पुटे आरम्भामहे. पुस्तकमस्ति सर्वस्य सर्वेषां विद्याधरी पुस्तकमस्ति वा? कस्यापि नास्ति वा?
साफ्ट् कापि अस्ति महोदय.
साधु साधु एव साधु. अस्तु, तर्हि अत्र रघुपतिमहोदय, अद्य अत्र विषयः अस्ति, अत्र न्यायशास्त्रे कानिचन पारिभाषिकपदानि सन्ति, इत्युक्ते टेक्निकल् टर्म्स् कानिचन सन्ति. तत्र आरम्भे सम्यक् अवगमनं भवति चेत् अग्रे गमनार्थं साधु भवति. तत्र अद्यतन केचन विषयाः अत्र चिन्तितव्यं. प्रथमविषयः अस्ति अवच्छेदकधर्मः, अवच्छेदकता, अवच्छेद्यता इत्युक्ते किम् इति. तर्हि एकविंशतितमे पुटे रघुपतिमहोदय, कश्चित् क्षीरविक्रेता, तस्माद् आरभ्य पठति वा?
कश्चित् क्षीरविक्रेता क्षीरम् आदाय आगतः. तस्मात् द्रोणपञ्चकपरिमितं क्षीरं क्रेतव्यम् अस्ति. कीदृशं पात्रं वयं नयामः? द्रोणदशकमानकं कुतः अतिवर्तेत? नापि द्रोणद्वयमानकं कुतः न्यूनीभवेत्? किन्तु द्रोणपञ्चकपरिमितं क्षीरं स्थापयितुं यत् पात्रं पर्याप्तं भवेत् तदेव स्वीकुर्मः. ततः किं कुर्मः? विक्रेतुः समीपं गत्वा तस्य पुरतः पात्रं स्थापयामः. विक्रेता च पात्रे तस्मिन् क्षीरं श्रावयति.
अस्तु, तावत् वदति वा किम् अवगतम्?
कश्चित् क्षीर, यदि वयं क्षीरं क्रेतुम् इच्छामः चेत् द्रोण क्वाण्टिटि क्षीरं, तस्मात् द्रोणपञ्चकपरिमितं क्षीरं यदि क्रेतुम् इच्छामः चेत् वयं केवलं द्रोणपञ्चकपरिमितं पात्रम् एव नयामः. यदि वयं दश द्रोणपञ्चकमितं दश, यदि वयं भिन्नं पात्रं, यदि वयं बिगर् पात्रं नयामः चेत् तत् अतिवर्तेत. यदि वयं किमपि स्माल् पात्रं नयामः चेत् पर्याप्तं न भवेत्. अतः वयं यत् पात्रं रिक्वायर्ड् तत् पात्रमेव नयामः क्षीरं क्रेतुम्.
अस्तु, तस्मिन् विक्रेता क्षीरं स्थापयति, श्रावयति, तत् पात्रं स्वीकृत्य गृहं गच्छामः. अस्तु, अग्रे पठतु कृपया. इदानीं किं तेन
योग्येन पात्रेण कृतं? द्रोणपञ्चकपरिमितं क्षीरं बृहत्पात्रगतक्षीरात् पृथक् कृतं. पात्रस्थं क्षीरं दृष्ट्वा एवम् अवगच्छामः, इदं क्षीरम् अन्यस्मात् क्षीरात् भिन्नं. केन एवम् अस्माभिः अवगतं? पात्रेण. तद् तद्हि तथि पृथक् करोति. इदं क्षीरम् अन्यत् इति बोधयति इति पात्रं क्षीरस्य अवच्छेदकं क्षीरं च अवच्छेद्यं भवति क्षीरे अवच्छेदता पात्रे च अवच्छेदकता तयोः निरूप्यनिरूपकभावः अवगतं यदि इदानीं क्षीरविक्रेता बृहत् पात्रात् अन्यपात्रे क्षीरं स्थापयति तदा वयं जानीमः यत् क्षीरमस्ति अन्यपात्रे तत् बृहत्पात्रात् भिन्नः अस्ति अतः एव वयम् एकं नाम अस्ति अवच्छेदकं पात्रः अवच्छेदकं तत् दर्शयति पात्रम् अवच्छेदकम् अस्ति यत् दर्शयति एतत् क्षीरम् अन्यक्षीरात् बृहत्पात्रक्षीरात् डिफ्रेण्ट् अस्ति इति तथा भिन्नम् अस्ति क्षीरम् अवच्छेद्यं भवति पात्र अवच्छेदकं भवति अतः पात्रे अवच्छेदकता अस्ति क्षीरे अवच्छेद्यता अस्ति
क्षीरे अवच्छेद्यता
अवच्छेद्यता पात्रे अवच्छेदकता
इति मुख्यविषयः पात्रे अवच्छेदकता अस्ति पात्रम् अवच्छेदकं क्षीरे क्षीरम् अवच्छेद्यं तस्मात् क्षीरे अवच्छेद्यता अस्ति इत्र अवच्छेदक अवच्छेद्यभावस्य परिचयः केनापि प्रश्ने अस्ति वा इति विषये अवच्छेद्य अवच्छेदकधर्मः किं तदिति मूलविषयः
महोदय पात्रं तु भिन्नमस्ति एतत्तु स्पष्टमेव किन्तु क्षीरं तु एकमेव न
हा सत्यं क्षीरम् एकमेव किन्तु पात्रेण अवच्छेद्यं भवति
आम् महोदय तत्तु सम्यक् एव किन्तु क्षीरं तु भिन्नं कथम् अस्ति इति अहं पृच्छामि
इदं क्षीरम् अन्यक्षीरात् भिन्नं न वा एतत् उष्णीकुर्मः चेत् तत् क्षीरं तस्मिन् क्षीरे औष्ण्यं न भवति अत्र क्षीरं क्षीरमेकं किन्तु अवच्छेद्यधर्मात् विद्यते कस्यापि एको अस्ति कस्यापि धन्यवादः अस्तु यथा उदाहरणमस्ति आकाशः एकः अस्ति वा आकाशः एकः एव आकाश स्पेस् आकाशः एकः एव किन्तु तत्र घटम् अस्ति घटः अस्ति घटे आकाशः अस्ति घटेन आकाशः अवच्छेद्यः भवति इत्युक्ते जलं कुत्र स्थापयामः घटे घट आकाशे स्थापयामः इत्युक्ते घट आकाशः सामान्य आकाशात् भिन्नमिव यतोहि किञ्चित् तत्र आकाशः अवच्छेद्या भवति घटेन तादृशमस्ति क्षीरमेकं किन्तु पात्रात् क्षीरम् अवच्छेद्यं भवति अवगतं
सम्यक् महोदय
तर्हि अन्यविषयः अस्ति निरूप्यनिरूपकभावः इत्युक्ते किं विद्याभगिनी वदति वा
अत्र उदाहरणं स्वीकृत्य वदामि वा विजया वा विद्या वा क्षम्यतां
विद्या
विद्या अत्र नीत्वा वदामि वा अत्र पात्रम् अपि च क्षीरम् इति अथवा अत्र पूर्वं वयं अस्तु पूर्वं वयं दृष्टवन्तः तत्र यज्ञदत्तः अपि च आसनम् इति वयं दृष्टवन्तः. आसने अधिकरणता अस्ति, यज्ञदत्ते आदेयता अस्ति इति. तत्र आदेयता अपि च अधिकरणता द्वयोः निरूप्यनिरूपकभावः अस्ति इति वयं दृष्टवन्तः. एवमेव अत्र पात्रम् अस्ति, पात्रे अवच्छेदकता अस्ति, क्षीरे अवच्छेद्यता अस्ति. तर्हि अत्र पात्रे विद्यमाना अवच्छेदकता, पात्रनिष्ठ अवच्छेदकता निरूपित अवच्छेद्यतावती अवच्छेद्यताश्रयः क्षीरम् इति वक्तुं शक्नुमः. अत्र अवच्छेदकतायाः अपि च अवच्छेद्यता द्वयोः मध्ये सम्बन्धः अस्ति. अत्र सम्बन्धः, तस्य नामकरणमेव अत्र निरूप्यनिरूपकभावः इति.
सम्यक् इति मया अपेक्षितं. यत्र ससम्बन्धविषयौ सन्ति अस्तः, तत्र एकः तत्र निरूप्यनिरूपकभावः भवितुमर्हति, बहुत्र भवति. यथा पुत्रः माता, यथा अवच्छेदकता अवच्छेद्यता, यथा अधिकरणता आदेयता, ससम्बन्धविषयौ तयोः मध्ये एकः अस्ति चेत् अन्यापि भवेत्. तादृशभावः यत्र अस्ति तत्र निरूप्यनिरूपकभावः, एकः अन्यं निरूपयति. यथा भगिन्या उक्तं, पात्रनिष्ठ अवच्छेदकता निरूपित अवच्छेदता आश्रयः क्षीरं, तथैव विपरीतरीत्या कथं भवति भगिनि? क्षीरात् आरभ्य,
अस्तु, क्षीरात् आरभ्य अत्र क्षीरनिष्ठ अवच्छेद्यता निरूपित पात्रनिष्ठ अवच्छेदकता इत्यपि वक्तुं शक्नुमः.
अवच्छेदकता अवच्छेदितां निरूपयति, विपरीतमपि अस्ति, एकम् अन्यं निरूपयति, तादृशसम्बन्धः अस्ति. एषः विषयः बहुत्र आगच्छति, तदर्थम् आरम्भे परिचयरूपेण मुख्यविषयः अस्ति. कस्यापि प्रश्नः अस्ति वा निरूप्यनिरूपकभावविषये? सर्वेवगच्छन्ति सम्यक्. अग्रिमे पुटे पूर्वम् एकम् उदाहरणमासीत्, तत्र जलविषये जल अभावः इति आसीत्, सर्वे स्मरन्ति वा? सामान्यजलं, वृष्टिजलं, स्वातिनक्षत्रीयवृष्टिजलम्
इति
जलत्रयम् आसीत्, सर्वे स्मरन्ति?
महोदय,
अस्तु. तर्हि विजया भगिनी, द्वादशतमे पुटे प्रथम परिच्छेदे परिच्छेदात् पठतु. इदानीं शास्त्रे
एतादृश अवच्छेद्य अवच्छेदकता भवस्य किं प्रयोजनम् इति पश्यामः. अभावानां सामान्य अभावः, विशेष अभावः, विशेष विशेष अभावः इति एवं विभागः अनुपदम् एव अस्माभिः चिन्तितः. जलसामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले, वृष्टिजले अभावस्य वृष्टिजले, स्वातिनक्षत्रीयवृष्टिजले अभावस्य च प्रतियोगिता, स्वातिनक्षत्रीयवृष्टिजले इति तत्र स्थितं. तासां प्रतियोगितानाम् अस्ति भेदः. जल अभावनिष्ठ अनुयोगिता निरूपित प्रतियोगिता जलनिष्ठा अन्य, वृष्टिजल अभाव निष्ठ अनियोगिता निरूपित प्रतियोगिता वृष्टिजलनिष्ठा ततो भिन्ना. एवं तृतीये अपि परन्तु सः भेदः कथं ज्ञायते?
किञ्चित् वदति वा?
तत्र जलस्य भेदः जलसामान्यं, जलविशेषः, जलविशेषविशेष अभावः इति त्रयः सन्ति तत्र. एतत् अनुपदेन जल सामान्य अभावस्य प्रतियोगिता सर्वस्मिन् जले अस्ति इति तत्र वृष्टिजल अभावस्य वृष्टिजले तत्र वृष्टिजले अभावस्य प्रतियोगिता अस्ति स्वादिनक्षत्रीयवृष्टिजले अभावस्य च प्रतियोगिता स्वादिनक्षत्रीयवृष्टिजले इति तत्र स्थितम्
तत्र अभावः कः प्रतियोगी कः इति वदति वा क्षम्यताम् अभावः इत्युक्ते किम्
अभावस्य प्रतियोगिता तत्र नास्ति
अभावः इत्युक्ते किम्
अभावः इत्युक्ते नास्ति तत्र भावस्य अभावः अस्ति
प्रतियोगिता कः प्रतियोगी इत्युक्ते कः
विरोधभावः प्रतियोगिता इत्युक्ते विरोधभावः एव खलु इति प्रतियोगिता इत्युक्ते
सत्यं किन्तु इतोपि किञ्चित् वक्तव्यं विरोध कस्य विरोधः अभावस्य विरोधः एवं वा
अभावस्य विरोधः एव प्रतियोगिता
प्रतियोगी अभावस्य विरोधः प्रतियोगी या अस्ति यस्य आनयनेन अभावः नष्टः भवति सा प्रतियोगी यस्य आनयनेन अभावः न भवति अभावः नष्टः भवति तर्हि जलसामान्य अभावस्य तस्मात् वदतु जलसामान्य अभावस्य प्रतियोगी का
जलसामान्यस्य प्रतियोगी जलसामान्य एव
सर्वस्मिन् जलं तर्हि वृष्टिजल अभावस्य प्रतियोगिता कुत्र अस्ति
वृष्टिजले एव अस्ति
अपि च स्वातिनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगिता
स्वातिनक्षत्रीय एव अस्ति
तर्हि तत्र प्रतियोगितानां भेदः अस्ति एकत्र सर्वस्मिन् एकत्र प्रतियोगिता सर्वस्मिन् जले भेदः अस्ति तर्हि तद् वाक्यं पठतु जल अभावनिष्ठ तत् पठतु एकवारं
जल अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता जलनिष्ठा अन्या तत्र निरूप्य निरूपकभावः विवरणम् अस्ति तत्र किमर्थं जल अभावः जल सामान्यतया अस्ति इति जल जलभाव
अत्र अनियोगिता कुत्र अस्ति अनियोगिता कुत्र अस्ति अभावे अनियोगिता अस्ति सामान्य अभावः अनियोगिता तत्र अस्ति अत्र वृष्टिजल अभावः तस्मिन् या अनियोगिता अस्ति वदतु
सामान्य तत्र प्रथमं सामान्यभावे निरूप्यम् अनन्तरम् एतदेव एवं तृतीयः अपि परन्तु भेदः कथं ज्ञायते इति प्रश्नः तत्र तत्र जल अभावे निश्च जल अभावे निश्च अनियोगिता निरूपित प्रतियोगिता
अत्र एकवारं वृष्टिजल अभावनिष्ठ तत् एकवारं पठतु वृष्टिजल अभावनिष्ठ अनियोगिता निरूपित
वृष्टिजल अभावनिष्ठ अनियोगिता निरूपित प्रतियोगिता वृष्टिजलनिष्ठ कथमिति अवच्छेद्य अवच्छेदकभावं तत्र ज्ञातुं शक्नुमः अत्र अवच्छेदक
अवच्छेदक अवच्छेद अत्र अवच्छेदकः अवच्छेदः एतावत् न आगतम्। अत्र केवलं वृष्टिजल अभावः अस्ति, अनिष्ट अनियोगिता अस्ति। तत्र अधः चित्रं पश्यतु, षड्विंशतितमचित्रं, तत्र वृष्टिजल अभावः अस्ति, तस्मिन् अनियोगिता अस्ति। इत्युक्ते वृष्टिजल अभावनिष्ठ अनियोगिता, यथा यथा यज्ञदत्तः अस्ति, सः आधेयः, यज्ञदत्ते आधेयता अस्ति, यज्ञदत्तनिष्ठ आधेयता, तथा वृष्टिजल अभावः अस्ति, तस्मिन् अनुयोगिता अस्ति। इत्युक्ते वृष्टिजल अभावनिष्ठ अनुयोगिता, तत् किं निरूपयति? प्रतियोगिता निरूपयति। सत्यम्? अवगतं वा? सर्वैः बुद्धं वा? तत् चित्रे चित्रे यत् अस्ति तदं तदेव मया उक्तं। वृष्टिजले वृष्टिजल अभावः अस्ति, सा एव अनुयोगी, तस्मिन् अनुयोगिता अस्ति, तर्हि वृष्टिजल अभावनिष्ठ अनुयोगिता इति अस्ति, तद् निरूपित। प्रतियोगिता कुत्र अस्ति? वृष्टिजल एव। तर्हि वाक्यं भवति वृष्टिजल अभावनिष्ठ अनुयोगितानिरूपित प्रतियोगिता वृष्टिजलनिष्ठा, न तु कूपजले। बुद्धम्? अस्तु, भानुमहोदय वदति वा?
महोदय, तत् प्रतियोगिता वृष्टिजलनिष्ठा वा, प्रतियोगिता वृष्टिजल आश्रयं वा?
प्रतियोगिता आश्रयः वृष्टिजलं।
महोदय,
प्रतियोगिता आश्रयः वृष्टिजलम्। यत्र बाणः उपरि गच्छति तत्र निष्ठ इति वदामः, यत्र बाणः अधः गच्छति तत्र आश्रयः।
यत्र बाणः दक्षिणतः गच्छति तत् निरूपित।
सत्यम्। भवानेव वदतु, तत्र तत्र स्वातिनक्षत्रीय वृष्टिजल अभावः अस्ति, तस्मिन् चित्रे किमपि वदतु, कथमस्ति तत्र
स्वातिनक्षत्रीय वृष्टिजलाभावः निष्ठा अनियोगिता, तत् निरूपित प्रतियोगिता आश्रय स्वातिनक्षत्रीय वृष्टिजले वृष्टिजलं वृष्टिजले
प्रतियोगिता स्वातिनक्षत्रीय वृष्टिजले अस्ति, अथवा प्रतियोगिता आश्रयः स्वातिनक्षत्रीय वृष्टिजलं, जलम् आश्रयः, जले आश्रयता अस्ति,
आश्रयता। आम् महोदय, आश्रयम् आश्रयता।
सर्वे अवगतं? कस्यापि प्रश्नः अस्ति वा? अस्तु, तर्हि अग्रे सरला भगिनी, यद्यपि स्वातिनक्षत्रीयवृष्टिजल
किं भवति
तत्र द्वितीयपरिच्छेदे? तत्र तथापि जलं नास्ति इति, तस्मात् मध्ये तथापि जल
तथापि जलं नास्ति इति सामान्यभावस्य प्रतियोगिता, यथा कूपजले वर्तते तथा वृष्टिजले अपि वर्तते, स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते इति प्रतियोगितायाः आश्रयः सर्वाणि जलानि भवन्ति। अतः आश्रयभेदेन प्रतियोगिताभेदं न साधयितुं प्रभवामः, विचारमेन चित्ररूपेण पश्यामः। यदि सामान्यभावस्य अभावः अस्ति जल सामान्य जल सामान्यभावजलस्य अभावः अस्ति अत्र तस्य प्रतियोगिता भवति सर्वे जलेषु यथा सामान्यजल कूपजलं स्वातीनस्य जलम् अपि वृष्टिजलं त्रीणि जलेषु त्रिषु जलेषु प्रतियोगिता अस्ति सामान्यभाव अनियोगिता प्रति अतः तेषाम् आश्रय एकम् अस्ति किन्तु प्रतियो यथा यद् वयं स्वीकुर्मः स्वातीनस्य जल तस्मिन् मति प्रतियोगिता वृष्टिजले प्रति अपि अस्ति प्रतियोगिता स्वातीनस्य जले अपि अस्ति कूपजले अपि अस्ति एक आश्रयः अस्ति किन्तु तस्मिन् सन्ति तिस्रप्रतियोगिताया इदानीं कथं जानीमः प्रतियोगिता भेद तेषां मध्ये प्रतियोगिता भेद कथं जानीमः अतः अवच्छेदक अवच्छेद्य इति स्वीकरणं भवति स्वीकरणीयं भवति
यदि स्वातिनक्षत्रे वृष्टिजल अभावः अस्ति तस्य प्रतियोगिता स्वातिनक्षत्रे वृष्टिजले अस्ति वृष्टिजल अभावस्य प्रतियोगिता वृष्टिजले एव अस्ति किन्तु सामान्यजलस्य अभावः सर्वेषु जलेषु अस्ति तस्मात् आश्रयभेदः प्रयोगेन प्रतियोगिताभेदं न वक्तुं शक्नुमः तस्मात् यथा भवत्या उक्तम् अवच्छेदकस्य अपेक्षा इदानीम् अग्रे आगच्छति
तत्र
साधनीयमस्ति शिवराम महोदय अग्रे पठति वा
महोदय अतः आश्रयभेदेन प्रतियोगिताभेद न साधयितुं प्रभावमः इत्युक्ते किं महोदय तत्र
यथा स्वातिनक्षत्रीयजले तस्य स्वातिनक्षत्रीयवृष्टिजल अभावस्य प्रतियोगिता स्वातिनक्षत्रीयवृष्टिजले तदेव आश्रयः प्रतियोगितायाः आश्रयः स्वातिनक्षत्रीयवृष्टिजलं वृष्टिजलाभावस्य प्रतियोगितायाः आश्रयः वृष्टिजलं तत्र आश्रयभेदः अस्ति एकत्र स्वातिनक्षत्रीयवृष्टिजलम् एकत्र वृष्टिजलं किन्तु सामान्यजलस्य अभावः तत्र भिन्नभिन्न आश्रयः आश्रयेषु अस्ति तर्हि आश्रयभेदेन प्रतियोगिता कुत्र अस्ति न वक्तुं शक्नुमः एकः आश्रयः इति न वक्तुं न साधयितुं शक्नुमः
साधयितुम् इत्युक्ते
साधयितुम् इति निर्णेतुं
निर्णेतुं प्रभवामः
किं न अवगच्छामः न कर्तुं शक्नुमः न शक्नुमः इति
आम् आम्
कुत्र आश्रय प्रतियोगिताभेदम् आश्रयभेदेन कुत्र अस्ति इति न निःसंशयेन वक्तुं शक्नुमः स्पष्टतया न वक्तुं शक्नुमः
हरि ओं महोदय सम्यक्
अस्तु अग्रे शिवराम महोदय प्रश्नः अस्ति वा
न प्रश्नः न प्रश्नः
अस्तु अग्रे अतः प्रतियोगितायाः
अहं पठामि वा
आम् शिवराम महोदय
पेज् नम्बर्
त्रयोविंशतिः
अतः प्रतियोगितायाः आश्रयः भिद्यते इति प्रतियोगिता अपि तत्र तत्र विलक्षणा इति ज्ञायते प्रतियोगिता इह अस्याः प्रतियोगितायाः आश्रयः न भिद्यते किन्तु सर्वाणि जनानि इति आश्रयभेदा इयं प्रतियोगिता अन्ययोः प्रतियोगितयोः भिन्ना अन्या इति न ज्ञायते अतः तासां भेदसाधनाय अवच्छेदकस्य अपेक्षा वर्तते
यथा सरला भगिन्या उक्तम् अवच्छेदकधर्मः कः इति अग्रे आगच्छति, अग्रे पठतु कृपया. अत्र इदं ज्ञेयम्,
अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. यथा जलं नास्ति इति अभावः उक्तः, जले च प्रतियोगिनी सन्ति जलत्वद्रवत्वसत्तादयो धर्मः, परन्तु अभावकथनाय जलं नास्ति इति एव उक्तम् इति जलत्वेन एव जलस्य उल्लेखः कृतः, अतः तत् प्रतियोगिता अवच्छेदकम्. जलम् अवच्छेदकम् अस्ति
न, जलं न,
जलं न.
अग्रे पुनः पठतु. अत्र इदं ज्ञेयम्,
अत्र इदं ज्ञेयं प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्. यथा जलं नास्ति,
इत्युक्ते किम्?
प्रतियोगिनी यत् विशेषणं प्रतियोगिनः उल्लेखः येन रूपेण धर्मेण क्रियते तत् प्रतियोगितायाः अवच्छेदकम्.
अत्र प्रतियोगी अस्ति, प्रतियोगितायां यः धर्मः अस्ति सः धर्मः अवच्छेदकम्.
प्रतियोगितायां धर्मम् अस्ति सः अवच्छेदकं धर्मः.
हा, यः धर्मः अस्ति तद् अवच्छेदकं. यथा अग्रे जलं नास्ति इति
अभावः उक्तः,
तर्हि जले किं किम् अस्ति? जले च प्रतियोगिनी सन्ति किं किं? जलत्वं, द्रव्यत्वं. जले च प्रतियोगिनी, अत्र प्रतियोगिनी का का विभक्ति? प्रतियोगिनी
सप्तमी विभक्ति.
हा, प्रतियोगिनी किं किम् अस्ति? जलत्वं, द्रव्यत्वं, सत्ता इति आदयः धर्माः सन्ति जले. अस्तु, अवगतम्? किन्तु अत्र अभावः कीदृशः? जल अभावः, जलं नास्ति इति अभावः. तर्हि जले कः धर्मः अस्ति येन जलं नास्ति इति अभावस्य विरोधः भवितुमर्हति? भवान् किं चिन्तयति? जले जलत्वम् अस्ति, द्रव्यत्वम् अस्ति, सत्ता अस्ति, किन्तु जलं नास्ति इति अभावः यत्र उक्तं तत्र जलस्य कः धर्मः येन जलं नास्ति इति अभावस्य विरोधः भवितुमर्हति? तदस्ति जलत्वम्. जलत्वम् इति जलस्य धर्मः, सः धर्मः एव अवच्छेदकः. अत्र प्रतियोगिताः बहवः सन्ति, किन्तु जलत्वम् एकत्र एव अस्ति, जले एव अस्ति. तर्हि जलेन, जलत्वेन प्रतियोगितायाः अवच्छेदकं भवति. जलत्वम् अवच्छेदकं, प्रतियोगिता अवच्छेद्यम्. जलत्वम् अवच्छेद्यं, जलत्वम् अवच्छेदकम्. प्रतियोगितायाः अवच्छेदकं जलत्वं, प्रतियोगिता जलत्व अवच्छेद्यः, जलत्वेन अवच्छेद्यम् प्रतियोगिता. अस्तु, अन्तिमपरिच्छेदः पठतु. तथा च
अस्याः प्रतियोगितायाः भेदज्ञानम् अपेक्षितं, तस्याः यत् अधिकरणं जलं तत्र स्थित्वा इदं जलत्वम् इयं प्रतियोगिता अन्यप्रतियोगिताभ्यः अन्या भिन्ना इति बोधयति. प्रतियोगिता अवच्छेद्य अस्ति, अवच्छेदकत्वं जलत्वम्.
जलत्वे अस्ति, जलत्वम् अवच्छेदकं, जलत्वे अवच्छेदकत्वं. तर्हि अवच्छेदकम् इति धर्मस्य आनयनेन जलत्वम् इति एकत्र एकम् आश्रयम् एक आश्रयः साधयितुं शक्नुमः. जलाभावस्य प्रतियोगितायाः अवच्छेदकधर्मः जलत्वम् इति आगच्छति. तस्य अधिकरणं जलम्. तादृशजलत्वनिष्ठप्रतियोगिता अन्यप्रतियोगिताभ्यः भिन्ना इति बोधयति. अवगतम्? तथा एव अग्रिमपुटे रघुपतिमहोदय पठति वा? अग्रिमपुटे चित्रमस्ति वृष्टिजलम्.
एवं वृष्टिजलं नास्ति नास्ति इति अभावस्य अपि वृष्टिजले वृष्टिजले वृष्टिजल जलत्वम् अस्ति, प्रतियोगिता अपि अस्ति. अतः वृष्टिजलत्वेन वृष्टिजल जलत्वेन जल जलत्व वृष्टिजले वृष्टिजलत्व अवच्छेदकता अस्ति. अवच्छेदकता अवच्छेद्यं वृष्टिजल अप्रतियोगिता.
तत्र अधः एकः परिच्छेदः अस्ति, अत्र यद्यपि तत्र पठतु भवेत्. अत्र यद्यपि
अत्र अत्र यद्यपि जलसामान्य अभावस्य प्रतियोगिता कूपजले इव स्वातिनक्षत्रीयवृष्टिजले अपि वर्तते. अतः आश्रयाः ते एव. तथापि सामान्य अभावस्य प्रतियोगितायाः अवच्छेदकं शुद्धजलत्वं, वृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं, स्वातिनक्षत्रीयवृष्टिजलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयवृष्टिजलत्वम् इति अवच्छेदक अवच्छेदकभेदात् सिद्धः प्रतियोगिताभेदः. अत्रैव अत्र अत्र एवम् अवच्छेद्य अवच्छेदक अवच्छेदकभावः. सामान्यजलाभावस्य प्रतियोगिता कूपजले इव सर्वे जले अस्ति. तथापि सामान्यभावस्य प्रतियोगिता प्रतियोगितायाः अवच्छेदकं शुद्धजलत्वम् एव. यथा वृष्टिजल जलाभावस्य प्रतियोगितायाः अवच्छेदकं वृष्टिजलत्वं, स्वातिनक्षत्रीय जलाभावस्य प्रतियोगितायाः अवच्छेदकं स्वातिनक्षत्रीयजल जलत्वम्. अतः त्रयाणाम् अवच्छेदकता भिन्ना अवच्छेदकता भिन्ना अस्ति.
अवच्छेदकभेदात्
अवच्छेदकभेदात् प्रतियोगि प्रतियोगिताभेदः वयं साधयितुं ज्ञातुं शक्नुमः.
तथा एव अस्ति. सः एव अवच्छेद्य अवच्छेदकभावः इति. प्रश्नः अस्ति वा कस्यापि? अस्तु, अग्रे पठतु कृपया महोदय. रघुपतिमहोदय अग्रे.
चित्रं वा? चित्रं
न, सर्वत्र अग्रिमे पुटे.
ओके. सर्वत्र चित्रेषु ऊर्ध्वगामिनी शरे निष्ठ इति, अधोगामिनी शरे आश्रय इति, तिरश्चीने तिरश्चीने निरूपित इति न्यायभाषा व्यवहर्तव्यं. तिरश्चीने
इति पूर्वमुक्तम् अधोगमनाय निष्ठ ऊर्ध्वगमनाय निष्ठः, अधोगमने आश्रय इति निरूप इति चिन्तनीयम्. किमिति?
ऊर्ध्वगामिनी इत्युक्ते उपरि निष्ठ, अधोगामिनी इत्युक्ते आश्रयः इति आगच्छति शरे. तिरश्चीने इत्युक्ते आरिजोण्टल् लैन्.
ओके इति न्यायभाषा व्यवहर्तव्यम्. एवं च जलत्वनिष्ठ अवच्छेदकता जलत्वनिष्ठ अवच्छेदकतानुरूपित अवच्छेदताश्रय जलनिष्ठ प्रतियोगितानिरूपित अनियोगिताश्रय आश्रयः अभावः इति विवरणं भवति.
तत्र एकत्रिंशत्तमे चित्रं तस्य वर्णनमस्ति. कृपया मन्दं पठतु कथमस्ति जलनिष्ठ जलत्वनिष्ठ.
एकनिमिषम्. एवं च जलत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेदता अवच्छेदताश्रय जलनिष्ठ प्रतियोगितानिरूपित अनियोगिताश्रयः अभावः इति विवरणं भवति.
कथं किमर्थं जलत्वनिष्ठ अवच्छेदकता
जलत्वनिष्ठ अवच्छेदकता जलत्वनिष्ठ जलत्वे अवच्छेदकता अस्ति. तत् निरूपित तत् निरूपयति अवच्छेद्यतां निरूपयति अवच्छेद्यतां निरूपयति
अवच्छेद्यता
अवच्छेद्यता निरूपयति अवच्छेदता
कुत्र अस्ति
जलनिष्ठ अवच्छेद्यता अस्ति अवच्छेद्यता अस्ति
प्रतियोगितायाम् अवच्छेद्यता अस्ति
प्रतियोगिता अवच्छेद्यता अस्ति
तया प्रतियोगितया निरूपिता किं
प्रतियोगितनिरूपिता अनियोग अभावनिष्ठ अनियोगिता अथवा अभा अनियोगिताश्रय अभावः
इति अस्ति. अवगतम्?
अवगतम्.
विजया भगिनी
अवगतं.
विजया भगिनी अग्रिमे अग्रिमे परिच्छेदे अभावात् आरभ्य कथं भवति स एव चित्रम्
अभावनिष्ठ अनियोगिता अनियोगिता निरूपिते प्रतियोगिता निष्ठिजले अवच्छेद्यता निरूपित वृष्टिजलत्वम् अवच्छेदकता अवच्छेदकता वर्त.
अस्तु पुनः वदतु अभावनिष्ठ एकनिमिषं कस्मिन् किं किं चित्रं दृष्ट्वा वदति द्वात्रिंशत् वा द्वात्रिंशत् वृष्टिजल किम् चित्रं चित्रस्य किं चित्रं 32 इति वा वदतु वदतु अभावनिष्ठ
अभावनिष्ठ अनियोगित अनियोगित निरूपित प्रतियोगित अवच्छेद्यता निरूपित जलत्वं अभावनिष्ठ अनियोगिता निरूपित निरूपित प्रतियोगिता निष्ठ जलत्वे वृष्टिजले
सम्यक्
वाचि
न प्रतियोगिता कुत्र अस्ति उपरि अस्ति
प्रतियोगिता अवच्छेद्यता
एकनिमिषम् एकनिमिषम् अभावनिष्ठ अनियोगिता सत्यं किन्तु प्रतियोगिता उपरि अस्ति वृष्टिजलम् अधः अस्ति तर्हि वृष्टिजलनिष्ठ प्रतियोगिता यथा अभावनिष्ठ अनियोगिता तथा वृष्टिजलनिष्ठ प्रतियोगिता अभावनिष्ठ अनियोगितानिरूपित वृष्टिजलनिष्ठ प्रतियोगितानिष्ठ अवच्छेद्यता
निरूपित जलत्वं निष्ठ अवच्छेद अवच्छेदकतावत् अवच्छेदक अवच्छेदकतावत् एतदेव खलु तत्र
मया न बुद्धं भगिनि पुनः वदति वा
अभावनिष्ठ अनियोगिता निरूपित वृष्टिजलनिष्ठ प्रतियोगिता निष्ठ अवच्छेदिता निरूपित अवच्छेदकतावत् निष्ठ आश्रय वृष्टिजलत्वम्
इति अस्ति अवच्छेदकतावत् वृष्टिजलम् अथवा अवच्छेदकता आश्रयः वृष्टिजलत्वम् खलु किरण उक्तं विद्याभगिनी वदति वा वृष्टिजलम् इत्यस्मात् आरभ्य
तदेव चित्रं वा महोदय
किन्तु वृष्टिजले आरभ्य
अस्तु अत्र वृष्टिजलत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यता आश्रयः वृष्टिजलनिष्ठप्रतियोगितानिरूपित अनियोगिताश्रयः अभावः
सम्यक् सर्वैः अवगतम् शिवरां महोदय वदति वा तत्र 31 तमे चित्रे अभावतः आरभ्य
महोदय अत्र अभाव वृष्टिजलाभावः एवं न अनियोगिता अनिष्ट अभावः
एतत् सर्वं वदामः तर्हि अभावः अस्ति कीदृश अभावः अभावन किं वृष्टिजलनिष्ठ वृष्टिजलत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेदता अवच्छेद्यता आश्रय वृष्टिजलनिष्ठ प्रतियोगितानिरूपित अनियोगिता आश्रयः अभावः तादृश अभावः यस्य प्रतियोगी वृष्टिजलं यस्य प्रतियोगितायाः अवच्छेदकधर्मः वृष्टिजलत्वं तादृश अभावः बुद्धम् अत्र दीर्घवाक्येन अभावः कीदृशः इति बुद्धं भवति तर्हि शिवरां महोदय 31 इति चित्रे
एकं संशयं महोदय जलेन अवच्छेदकता अवच्छेदता द्वयं कथं भवति महोदय
पुनः वद जले
जले अवच्छेदकता अवच्छेद्यता द्वयं कथं भवति अवच्छेदकम् इति सम्यक् तत् अवच्छेद्यं जलं तु किञ्चित् अन्यत्
प्रतियोगिता अवच्छेद्य प्रतियोगिता कुत्र अस्ति वृष्टिजले अस्ति जले अस्ति अथवा वृष्टिजले अस्ति अत्र जलत्वम् अवच्छेदकधर्मः जलत्वे अवच्छेदकता अस्ति प्रतियोगितायाम् अवच्छेद्यता अस्ति वृष्टिजलत्वं वृष्टिजले अस्ति प्रतियोगिता वृष्टिजलम् अपि अस्ति
महोदय आं महोदय
बुद्धम्
बुद्धं महोदय
अस्तु शिवरां महोदय अस्ति वा अस्तु अस्तु अग्रे गच्छामः अग्रिमे पुटे
मम एकः प्रश्नः अस्ति स्वास्थ्य नस्य वृष्टिजले तिस्रप्रयो प्रतियोगिताः सन्ति समानजलभावे प्रति वृष्टिजल अभावे प्रति अपि स्वातिनस्य जल वृष्टिजल अभावे प्रति एकं स्वात्री स्वातिनस्य वृष्टिजले तिस्र प्रतियोगिताः कथं भिद्यते
कथं त्रयः जलं मया न बुद्धं
तस्मिन् केवलं स्वातिनस्य जलत्वम् अस्ति
हा स्वातिनक्षत्रे वृष्टिजले स्वातिनक्षत्रीय वृष्टिजलत्वं सः अवच्छेदकधर्मः
आम् किन्तु वयं पूर्वं पृष्ठे दृष्टवन्तः तस्मिन् अस्ति तिस्र प्रतियोगिता स्वातिनस्य जल समानाभाव अपि तस्मिन् अस्ति समानजलभावप्रति अपि प्रतियोगिता अस्ति वृष्टिजले अभावे प्रति प्रतियोगिता अपि अस्ति न
तत्र किं खादितम् अत्र जलम् इति आश्रयः स्वीकुर्मः चेत् समस्या भवति किन्तु जलत्वम् इति अवच्छेदकधर्मः स्वीकुर्मः चेत् जलत्वं कुत्र अस्ति सामान्यजले अपि अस्ति वृष्टिजले अपि अस्ति स्वातिनक्षत्रे वृष्टिजले अपि अस्ति कूपजले अपि अस्ति तस्मात् जलत्वम् इति धर्मः अवच्छेदकधर्मः इति वदनेन तत्र आश्रयभेदः या समस्या अस्ति तस्य निवारणम्
अस्तु
तदर्थम् अवच्छेदकधर्मः इति विषयः आनीतम्
महोदय अत्र सामान्यजलत्वं भिन्ना वृष्टिजलत्वं भिन्ना भिन्ना वा स्वातिनक्षत्रे जलत्वम् अपि भिन्नः
वृष्टिजलत्वं भिन्नं स्वातिनक्षत्रे वृष्टिजलत्वं भिन्नं जलत्वं सर्वत्र जलस्य अभावः निवारणार्थं किमपि जलं भवतु प्रतियोगिता तथा किन्तु जलत्वं भवेत् जलत्वम् इति धर्मः अस्ति चेदेव तज्जलं जलाभावस्य प्रतियोगी भवति
तर्हि सामान्यजलत्वस्य कथम् अवच्छेदक
सामान्यजल जलत्वम् अस्ति
सामान्यजलत्वमेव
जलत्वं केवलं जलत्वं भिन्नत्युक्ते जलत्वम् इति धर्मः वृष्टिजले जलत्वम् अस्ति किन्तु स्वातिनक्षत्रे वृष्टिजलं नास्ति किम् अस्तु अग्रे सरम तर्हि अग्रिमे पुटे षड्विंशतितमे पुटे अत्र शिवराम महोदय अस्ति वा अस्तु तर्हि अस्ति वा अत्र अत्र अयं विशेषः निरूप्य निरूपकभावः तस्मात् पठतु
अत्र अयं निरूप्य निरूपकभावः अवच्छेद्य अवच्छेदकभावः च सर्वत्र भवति अत्र अयं विशेषः सम्बन्धः यः कोऽपि अस्तु निरूप्य निरूपकभावः तत्र अवश्यं भवति अवच्छेद्य अवच्छेदकभावः च आधार अधेयभावे इदं चिन्तयामः पूर्वोक्ते उदाहरणे यज्ञदत्तनिष्ठः अधेयता निरूपित अधिकरणताश्रयः आसनम् इति अत्र इत्यत्र आधारणता आधारता अधेयतायोः निरूप्य निरूपक
हरि ओम् सर्वे सन्ति वा हरि ओम्
आम् महोदय आम् महोदय
अस्तु प्रायः शिवरामहोदय नास्ति शिवरामहोदय अस्ति वा
अस्ति सः अस्ति परन्तु प्रायः ध्वनिः न आगच्छति
अस्तु तर्हि रघुपति महोदय पठति वा उदाहरणदत्तनिष्ठ
अत्रायं विशेषः सम्बन्धः यः कोऽपि अस्तु निरूप्य निरूपकभावः तत्र अवश्यं भवति अवच्छेद्य अवच्छेदकभावः च आधाराधेयभावे इदं चिन्तयामः पूर्वोक्ते उदाहरणे यज्ञदत्तनिष्ठ आधेयतानिरूपित अधिकरणताश्रयः आसनम् इत्यत्र आधारता आधेयतायोः निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः समानाधिकरणधर्मस्य च अवच्छेद्य अवच्छेदकभावोऽपि भवति.
किमवगतम्?
सम्बन्धः यः कोऽपि अस्तु अत्र निरूप्यनिरूपकभावः अवश्यं भवति अपि च अवच्छेद्य अवच्छेदभावः अपि वर्तते. यदि वयम् आधारादेयभावः चिन्तयामः पूर्वोक्ते वयं दृष्टवन्तः यज्ञदत्ते आधेयता अस्ति आधिकरण आसने अस्ति यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणताश्रयः आसनम् इति आसनम् इत्यत्र आधारता आधेयता निरूप्यनिरूपकभावः यथा वर्तते तथा आधेयतायाः एवम् अधिकरणतायाः समानाधिकरणधर्मस्य च आधेयतायाः एवम् अधिकरणतायाः समानाधिकरणधर्मस्य च अवच्छेद्य अवच्छेदिकभावोऽपि भवति. इदं तु अहं न जानामि महोदय.
अस्तु अग्रे अतः यज्ञदत्तत्वनिष्ठ इति लिखितमस्ति चित्रस्य वर्णनमस्ति तत् पठतु कृपया. यज्ञदत्तत्वनिष्ठ अत्र यज्ञदत्ते यज्ञदत्तत्वम् अस्ति आसने आसनत्वम् अस्ति इति धर्मः यज्ञदत्तस्य धर्मः यज्ञदत्तत्वम् आसनस्य धर्मः आसनत्वं धर्मः अवच्छेदकः.
ओके ओके. यज्ञदत्तनिष्ठ अवच्छेदकतानिरूपित यज्ञदत्त्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यताश्रय यज्ञदत्तनिष्ठ आधेयतानिरूपित आसनत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेदताश्रयः आश्रय अधिकरणाश्रयः आसनम् इति भवति.
दीर्घवाक्यं भवति. आरम्भे केवलं लघुरूपेण दृष्टम् अत्र अवच्छेदकधर्मः अवच्छेद्य किम् अधिकरणता आधेयत इति सर्वम् आनीय दीर्घवाक्यम् इति न्यायशास्त्रस्य शैली अस्ति. तादृशशैली अग्रे अपि आगच्छति बहुवारम् आगच्छति तत्कारणेन अत्र इदं परिचयं कृतं. सर्वैः अवगतं वा कत्र कस्य कथं चित्रस्य निरूपण अभवत् इति अवगतम्? अस्तु तर्हि अग्रे सरेम. अत्र नूतनविषयः अस्ति अभावः. अभावः चतुर्विधम् एतावता अभावः एकम् अभावः जलाभावः इति उदाहरणत्वेन अभावः अस्माभिः दृष्टं. वस्तुतः अभावः चतुर्विधः. कथमिति अग्रे प्रतिपाद्यते. अत्र विद्या भगिनी पठति वा अभावः चतुर्विधः स्थूलाक्षरादस्ति.
चतुर्विधः प्रागभावः प्रध्वंसाभावो अत्यन्ताभावो अन्योन्याभावश्चेति इति दर्शितः अभावस्य विभागः. तर्हि अत्र अभावः चतुर्विधः प्रागभावः प्रध्वंसाभावः अत्यन्ताभावः इति अत्र चित्रे वः इत्यस्य त्रयः भेदाः
अत्यन्ताभावः अग्रे
अत्यन्त अन्योन्यभावः
प्रागभावः
चतुर्विधं न श्रुतं वा चतुर्विधम् इति उक्तं
श्रूयते भगिनि पुनः वदतु प्रागभावः अग्रे
प्रागभावः अभावः चतुरः प्रागभावः प्रध्वंसभावः अत्यन्तभावः अन्योन्याभावः इति चतुर्विधः अत्र अत्यन्त अभाव अभावे अत्र तयः प्रभेदाः सामान्याभावः विशेषाभावः विशेषविशेषाभावः
इति अस्माभिः दृष्टं जलाभावे जलाभावः दृष्टिजलाभावः तत्सर्वं तत् अत्यन्ताभावस्य निरूपणम् अग्रे इदानीं अग्रे पठतु कृपया भगिनि इदानीं ग्रन्थोक्त अभाव
पठामि वा अस्तु अस्तु इदानीं ग्रन्थोक्त अभावागानुसारेण प्रागभावः निरूप्यते अस्ति कश्चित् घटनिर्माता सः घटनिर्माणाय मृदम् आहरति जलं च आनयति तेन संयुक्तां मृदं भ्रमयितुं चक्रम् असिद्धं घटं चक्रात् पृथक् कर्तुं रज्जुं च आहरति तदा तादृशीं घटसामग्रीं दृष्ट्वावति ज्ञानम् अत्र घटो भविष्यति एतादृशज्ञानं घटाभावं प्रकाशयति अग्रे अपि पठामि वा अथवा अयमेव घटप्रागभावः घटोत्पत्तेः प्राक् सामग्रीसत्त्वे घटाधिकारणे प्रतीयमान्यायमानः अत्रापि घटस्य अस्य अभावस्य च विरोधः प्रतियोगी अनियोगीभावः अस्ति यदा प्रागभावः न तदा घटः उत्पन्ने पुनर्घटे न घटप्रागभावः इति अस्ति तयोः सहनावस्थानरूपः विरोधः तन्निरूपणप्रकारः पूर्ववत् ज्ञातव्यः इति अस्ति अत्र प्रथमतया प्रागभावः इत्यस्मिन् विषये दत्तमस्ति अत्र इदानीं ग्रन्थोक्तभावविभागानुसारेण प्रागभावः निरूप्यते अत्र प्रथमं प्रागभावः अत्र घटनिर्माता अस्ति सः घटस्य निर्माणाय सामग्रीम् आनयति अत्र मृदं जलम् आनयति अनन्तरं मृदम् अपि च जलं द्वयोः मिश्रणं करोति तदनन्तरं मृदं चक्रमपि आनयति इदानीम् अत्र चक्रात् घटं यदा हि घटस्य उत्पन्नं भवति घटः यदा हि उत्पद्यते तदा चक्रात् पृथक् कर्तुं रज्जुम् अपि आनयति यदा ता सामग्री यदा अस्माकं पुरतः सामग्री अस्ति चेत् तर्हि वयं ज्ञातुं शक्नुमः अत्र घटः भविष्यति इत्युक्ते अत्र सामग्री अस्ति इति कृत्वा घटः भविष्यति इति तादृशज्ञानं भवति एतादृशज्ञानं भावं प्रकाशयति इदानीम् अत्र सामग्री एव अस्ति घटः नास्ति तर्हि घटाभावः अस्ति सामग्रीं दृष्ट्वा वयम् अत्र प्रागभावः उत्पत्तेः प्राक् यः अभावः अस्ति तादृश अभावं प्रकाशयति प्रागभावः अनन्तरं अयमेव घटप्रागभावः घटोत्पत्तेः प्राक् सामग्रीसत्त्वे घटाधिकरणे प्रतीयमानः ज्ञायमानः इत्युक्ते अत्र घटोत्पत्तेः प्राक् केवलं सामग्री एव अस्ति घटाधिकरणे तर्हि अस्माकं वयं ज्ञातुं शक्नुमः अत्र सामग्री अस्ति घटः नास्ति घटः भविष्यति इति ज्ञानं भवति अत्रापि घटस्य अस्य अभावस्य विरोधः प्रतियोगी अनियोगीभावः अस्ति अत्र घटाभावस्य प्रतियोगिता घटे अस्ति अभावे तु अनियोगिता अस्ति इति इदानीमेव वयं दृष्टवन्तः प्रतियोगी अनियोगी इति भावः यदा प्रागभावः न तदा घटः इति अपि इदानीमेव दृष्टवन्तः सामग्री अस्ति घटः नास्ति उत्पन्ने पुनर्घटे न घटप्रागभावः इति अस्ति तयोः सहनावस्थानरूपविरोधः अत्र सहनावस्थानरूपविरोधः इति पूर्वं वयं परिशीलितवन्तः इत्युक्ते यत्र घटः अस्ति तत्र घटाभावः नास्ति यत्र घटाभावः अस्ति तत्र घटः अस्ति द्वयोः एकस्मिन् काले द्वयोः समान स्थितिः अवस्थितिः न भवति द्वयोः उपस्थितिः न भवति धनावस्थानरूपविरोधः तन्निरूपणप्रकारः पूर्ववत् ज्ञातव्यः. पूर्वमेव तस्मिन् विषये वयं दृष्टवन्तः. अत्र तदेव अस्ति.
सुन्दरं भगिनि. इति प्राग् अभावः, पूर्वं नासीत् इदानीम् अस्ति. प्राग् अभावः, इदानीं घटः, पूर्वं घटः नासीत् इदानीं घटः अस्ति. प्राग् पूर्वं घट प्राग् अभावः आसीत् इदानीं घटः घटः उत्पन्नं घटः उत्पन्नः प्राग् अभावः नष्टः. इति प्राग् अभावः. अवगतं सर्वैः? अस्तु, अग्रे भानुमहोदय.
आं महोदय.
एवं घटे अग्रिमपरिच्छेदः.
एवं घटे मुद्गरपाते सति अत्र घटो ध्वस्तः इति प्रतीतिः जायते. एतादृशप्रतीतौ यः प्रकाशयते सः घटध्वंसः द्वितीयः अभावः. एतावत् महोदय. घटम् अस्ति तत्र यदि उद्गरं पाते सति तत् घटः नष्टः भवति.
तत्र
घटध्वंसः द्वितीयाभावः. घटं तु पूर्वमस्ति, घटं तु इदानीं नास्ति. तत्र ततः द्वितीयाभावः प्रध्वंसाभावः.
प्रध्वंसाभावः, पूर्वमासीत् इदानीं नष्टः, इदानीं नास्ति इदानीम् अभावः. तादृशाभावः द्वितीयाभावः प्रध्वंसाभावः. अवगतम्? अस्तु, तृतीय अग्रे अग्रे महोदय. तृतीय अत्यन्ताभावः तु?
अत्यन्ताभावस्तु प्राक् निरूपितः भूतले घटो नास्ति इति अभावः. घटत्वनिष्ठावच्छेदकता निरूपितावच्छेद्यतावती या प्रतियोगिता तन्निरूपकः अभावः. एवं पटो नास्ति इति पटत्व अवच्छिन्न प्रतियोगिता प्रतियोगिताकः.
किम्
अत्यन्त अभावः पूर्वं निरूप
यथा भूतले घटः अस्ति घटः नास्ति इति उदाहरणं. भूतले घटः नास्ति इति अभावः. कीदृश अभावः? घटत्वनिष्ठ अवच्छेदकतानिरूपित अवच्छेद्यतावती या प्रतियोगिता तादृशरूपः अभावः. प्रतियोगिताकः अभावः, तादृश अभावः यस्य प्रतियोगी घटः, यस्य प्रतियोगितायाः अवच्छेद्य अवच्छेदकधर्मः घटत्वनिष्ठ अवच्छेदकता. तादृश
महोदय, पूर्वं यत् पठितं तत् अत्यन्त अभावः. तत्
सत्यं
महोदय. एवमेव पटः नास्ति इति पटत्ववच्छिन्न प्रतियोगिता कः प्रतियोगिता कः महोदय? तत् किञ्चित् कष्टं भविष्यति.
पटाभावः अस्ति यथा घटः पटत्वनिष्ठ अवच्छेदकता निरूपित अवच्छेदतावती या प्रतियोगिता तादृशप्रतियोगिताकः अभावः पटाभावः.
प्रतियोगिताकः इत्युक्ते महोदय
तादृशः तादृशः तन्निरूपकः अभावः तादृश तादृश अभावः. अस्तु, अग्रे प्रश्नः अस्ति वा? अस्तु, अग्रे अस्ति अन्योन्य अभावः. तत्र किं सरला भगिनी पठति वा?
आं महोदय, अन्योन्याभावनिरूपणाय तादात्म्यसम्बन्ध आदिनिरूपणम् आदौ क्रियते. अन्योन्याभावः अस्ति यथा घटपटः न. अत्र घट स्वस्मिन् अन्य तादात्म्यसम्बन्ध अस्ति साधनीयं. घट घटे अस्ति तादात्म्यसम्बन्धेन, सो द घटे भवति प्रतियोगिता. पटः न, पटे भवति अनियोगिता. सो घटनिष्ठ प्रति घटत्व अवच्छिन्ना घटत्व अवच्छिन्ना घटनिष्ठ प्रतियोगिता निरूपति. पट घटाभाव पटनिष्ठ घटाभाव इति भवति अन्योनाभाव प्रति वाक्यम्. अग्रे पुनः आगच्छति तत्र द्रव्ययोः अग्रे
पठ. अत्र एकनिमिषम्, अत्र सर्वे अवगच्छन्ति वा तादात्म्य तादात्म्यसम्बन्धः कः इति सर्वे जानन्ति वा?
वयं इदानीं पूर्वं पठितं सामान्यभाव सामान्य संयोगसम्बन्ध दृष्टवन्तः. पृथक् पृथक् यद् भवति तस्य संयोगः भवति, तदस्ति संयोगसम्बन्धः. तदनन्तरं वयं जानीमः समवायसम्बन्धः, यत् पृथक् न कर्तुं शक्नुमः, यथा गुणगुणिनो अवयविनो क्रियाक्रियावतोः जातिव्यक्तयोः विशेष नित्यद्रव्ययोः ते तत्र समवायसम्बन्धः अस्ति, यत् पृथक् न कर्तुं शक्नुमः. तदनन्तरं वय दादात्म्यसम्बन्ध तृतीयसम्बन्ध इदानीं प्रवेशं कृतम् अत्र.
अस्माकं वर्गे सर्वे जानन्ति, किन्तु अस्मिन् नूतनवर्गे सर्वे जानन्ति वा इति मम प्रश्नः.
एतस्मिन् पृष्ठे प्रथमवारम् आगच्छति
तादात्म्यसम्बन्धः.
आं दृष्टुम् शुरमहोदय, अत्र तादात्म्यसम्बन्धः कः इति भवान् जानाति वा?
तादात्म्यं इत्युक्ते तत्र भेदसहित अभेदः तादात्म्यम्. तत्र कार्यकार्यमस्ति अग्रे पृष्ठे चित्रस्य अधोभागे दत्तमस्ति. एवं घट आदिपदार्थानां स्वस्मिन् एव यः सम्बन्धः स तादात्म्यसम्बन्ध इति उच्यते, तस्य परिभाषा.
स्वस्मिन्
अग्रे पुनः आगच्छति. इदानीं केवलं परिचयं कृतम्.
महोदय किञ्चित् अधिकं वदतु महोदय.
वदामि. एवम् अत्र केवलं परिचयः अस्ति. एवं घटादिपदार्थानां स्वस्मिन् एव यः सम्बन्धः सः तादात्म्यसम्बन्धः. इत्युक्ते सम्बन्धः विषयद्वयोः मध्ये भवति बहु स्थलेषु. संयोगः द्रव्ययोः मध्ये भवति, यथा भूतलं घटः तयोः संयोगः भवितुम् अर्हति. अत्र अभावः प्रतियोगिता अनियोगिता इत्यादयः न संयोगेन न भवन्ति. समवायसम्बन्धः गुणगुणिनोः इत्युक्ते घटरूपं तत्र तयोः मध्ये समवायसम्बन्धः, क्रियाक्रियावतोः अवयव अवविनोः इति समवायसम्बन्धः. किन्तु एकः विषयः स्वस्मिन् एकः पदार्थः स्वस्मिन् केन सम्बन्धेन अस्ति इति तस्य कल्पना कृतं तादात्म्यसम्बन्धः इति उच्यते. अस्य किमर्थम् अत्र उक्तम् इति अग्रे आगच्छति. केवलं किञ्चित् तिष्ठन्तु, अग्रे आगच्छति. अस्तु, अत्र शिवरं महोदय अस्ति वा?
स्वरूपसम्बन्धमस्ति अपि दत्तमस्ति अत्र.
हा, किन्तु तत् अग्रे इदानीं पार्श्वे स्थापयामः.
अस्तु,
एकम् अत्र कारणं किं, कारणं किं, कार्यं किं, कारणमिति निकषाः त्रयः सन्ति. तस्मिन् विषये चर्चा भवति. शिवलं महोदय पठितुं शक्नोति वा?
पठामि. कुतः पठामि? तथा हि
तत्र पेज् 29 तथा हि काव्यकारणभावविचारे
कार्यकारणभावविचारे उत्पत्स्यमानं यत् कार्यं तत् प्रति किं कारणं भवितुम् अर्हति इति विचारे आदौ तेन कार्याधिकरणे भाव्यम् इति चिन्तितम्. यदि हस्तमलनिवारणं जलेन कर्तुम् इच्छति चेत् यद् हस्ते मलः अस्ति तत् यत्र बलनिवारणरूपं कार्यं कर्तव्यं तद् हस्ते एव जलसंयोगः आवश्यकः, न तु अन्यस्मिन् हस्ते भूतलादौ वा. अतः कार्यमिति यत् वयं मन्यामहे तस्य अधिकरणे कारणमिति यत् निर्धारणीयं तेन स्थातव्यम्.
किञ्चित् सारांशेन वदति वा? सारांशेन
उत्पत्स्यमानं यत् कार्यमस्ति तत् कार्यस्य कारणं किं भवितुम् अर्हति इति विषये प्रथमं विचारं करणीयं. भाव्यं नाम तस्य विषये चिन्तनम् अत्र करणीयम्. अत्र उदाहरणमस्ति हस्तमलनिवारणं. यदि हस्ते कापि मलः अस्ति तर्हि तस्य निवारणं यदि वयं कर्तुम् इच्छामः चेत् तत्र जलसंयोगः आवश्यकः. किन्तु जलसंयोगः यत्र हस्ते मलः अस्ति तत्र एव जलस्य संयोगः आवश्यकः, न तु अन्यस्मिन् स्थाने जलस्य संयोगः. तर्हि जलसंयोगः यत्र
अत्र कार्यं किं कारणं किं
हस्तमलनिवारणं कार्यमस्ति जलसंयोगः कारणमस्ति.
अस्तु अधिकरणं किम्?
अधिकरणं तु हस्तमस्ति हस्ते.
कीदृशं हस्तं? यस्मिन् हस्ते
मलयुक्त हस्तमस्ति.
तस्मिन् कार्याधिकरणे कारणमपि भवेत् कारणमपि भवेत् कार्यमपि भवेत् इति
एकः निर्धारणीयं तेन स्थातव्यम्.
अग्रे द्वितीयम्
इतस्य चिन्त्य अग्रे पठामः
वा? पठतु कृपया.
इतस्य चिन्त्यं घटनिर्माणस्थले तन्निर्माणरीतिं ज्ञातुं कश्चित् नागरिकाः गच्छति. सः अपि घटोत्पत्तिः यत्र भवति तत्र भूतले वर्तते एव, न तु सः घटस्य कारणम् इति व्यवह्रियन्ते. अतः कार्याधिकरणे विद्यते इति एतत् न पर्याप्तं, किन्तु यत् कारणम् इति निर्धारणीयं तेन कार्याधिकरणे सर्वदा भाव्यम्. नागरिकस्तु यदा ज्ञातुम् इच्छति तदैव घटाधिकरणे भवति, न अन्यथा. दण्डादयवस्तु सर्वदा एव भवन्ति इति तानि घटकारणानि. नाम अत्र किं भवति, अत्र उदाहरणमस्ति घटनिर्माणस्य. घटनिर्माण अवसरे कःपि नागरिकः तत्र आगत्य घटनिर्माणं कथं प्रचलन् अस्ति इति विषये द्रष्टुम् आगच्छति, किन्तु नागरिकस्य उपस्थितिः घटनिर्माणस्य कारणं नास्ति. नागरिकस्य उपस्थित्या वा अनुपस्थित्या अपि घटनिर्माणं भवितुम् अर्हति. नाम घटनिर्माणस्य कृते सामग्री आवश्यकी, तत्सर्वं तत् निर्माणात् पूर्वं सिद्धम् आवश्यकम्.
निर्माणपूर्वम् इति अत्र न, अत्र कार्याधिकरणे भवेत् इति न, किन्तु कार्याधिकरणे सर्वदा भवेत्.
सर्वदा भवेत् तत् आवश्यकमेव.
अत्र सर्वदा इत्युक्ते सर्वस्मिन् काले इति न, यदा यदा घटनिर्माणं भवति तदा तदा यानि कारणानि सन्ति ते भवेत् ते भवेयुः.
तेषां कारणानाम् उपस्थितिः तत्र आवश्यकी.
यत् भवता उक्तं नागरिक अस्ति वा नास्ति वा इति घटनिर्माणं प्रति किमपि प्रभावः नास्ति.
सा कारणा नास्ति वा
प्रभावः अपि
नास्ति. इतोपि चिन्त्यं घटः कार्यं स्वस्य अधिकरणे कपाले वर्तते एवं सर्वदा वर्तते अतः घटः अपि घटस्य कारणं स्यात् अतः यस्मिन् क्षणे कार्योत्पत्तिः तत् पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते घटः यद्यपि वर्तते स्वोत्पत्तरं सर्वदा स स्व उत्पत्ति उत्तरं सर्वदा वर्तते परन्तु न स्वात्पत्त्यः पूर्व वर्तते अतः न घटस्य स्वं प्रति कारणत्व उत्पत्तिः कारणत्वात्
आपत्तिः
आपत्तिः
किं
स्पष्टमस्ति
पुनः किम् सारांशः वदतु
अतः यस्मिन् क्षणे कार्योत्पत्ति तत् पूर्वक्षणे कारणं भाव्यं तत्र यस्मिन् क्षणे कार्योत्पत्ति तत् पूर्वक्षणे कारणेन भाव्यम् इति चिन्त्यते नाम किं कार्योत्पत्तिपूर्वं कार्यस्य यानि यानि कारणानि सन्ति तेषां सर्वेषाम् उपस्थितिः कार्यस्य उत्पत्तिपूर्वं तत्र उपस्थितिः अनिवार्यम्
सत्यम् उत्तमम् तथैव अस्ति अत्र रघुपतिमहोदय अग्रे निकषत्रयं पठति वा
एतु घटकारणीभूता एतु घटाकारणीभूताः दण्डचक्रादयः ते घटाधिकरणे कपाले वर्तन्ते सर्वदा वर्तन्ते एवं घटोत्पत्तेः पूर्वक्षणे वर्तन्ते इति दण्डः घटकारणं चक्रं घटकारणम् इति व्यवहारः तथा च किञ्चन कस्याचित् कारणम् इति निर्धारयितुं तेन कार्याधिकरणे स्थातव्यं द्वितीया तेन कार्याधिकरणे सर्वदा स्थातव्यं तृतीया तेन कार्याधिकरणे कार्योत्पत्तेः पूर्वक्षणे स्थातव्यम् इति भवति क्रमविचारस्य
अवगतं
हा अवगतं महोदय
यत् पूर्वं शिवरामहोदयेन उक्तं तत्वा तदेव अत्र निकषरु तेन इत्युक्ते किं तेन इत्युक्ते तेन
कारणेन कार्याधिकरणे स्थातव्यं सर्वदा स्थातव्यं कार्यपत्ये पूर्वक्षणे स्थातव्यम् इति त्रीणि त्रय कण्डीशन्स् कारणमिति निकषाः निर्धारयितुं कारणमिति निर्धारयितुम्
अस्तु अग्रे किमस्ति तत्र चित्रमस्ति चित्रे कपालः अस्ति कपालः कपाले केन सम्बन्धेन अस्ति इति प्रश्नः तत्र संयोगेन नास्ति दैशिकविशेषेण इत्युक्ते स्वरूपसम्बन्धेन नास्ति कालिकसम्बन्धेन नास्ति विषयतासम्बन्धेन नास्ति तर्हि कपालः अपि तादात्म्यसम्बन्धेन भवेत् इति आपतति तदर्थं तादात्म्यम् इति सम्बन्धः स्वीकार्यं भवति पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन अस्ति इति स्वीकर्तव्यं भवति अग्रे विजया भगिनी पठति वा अतः कपालस्य अग्रिमे पुटे पेज् 31 हरि ओम्
कपालस्य स्वस्मिन् अतः कपालस्य तस्मिन् सम्बन्धः तादात्म्यम् इति उच्यते कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन स्वस्मिन् घटम् उत्पादयति इति भवति कपालः घटस्य कारणम् अतः सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः सः तादात्म्यसम्बन्धः इति सिद्धम्
सारांशेन वदतु अवगतम्
तत्र कपालस्य कारणम् अस्ति, अधिकरणम् इति कारणमस्ति तत्र. तादपि इत्युक्ते तत्र सम्बन्धेन घटः तत्र उत्पत्ति अस्ति. कपालः स्वस्मिन् दादात्म्येन स्थित्वा स्वस्य सम्बन्धः तत्र अस्ति. अतः समवायेन स्वस्मिन् तत् उत्पादयति इति इत्युक्ते तत्र कार्याधिकरणमस्ति. अतः कपालमिति घटम् इति उत्पादयति. कपालः घटस्य कारणं, द्वयोः सम्बन्धः तत्र अस्ति. सर्वस्यापि पदार्थस्य स्वस्मिन् यः सम्बन्धः, घटे कपाले अधिकरणम् अधिकरणमिति सम्बन्धः द्वयोः मध्ये तादात्म्यसम्बन्धः इति तत्र घट घट अभावः घटे नास्ति इति तत्र वयं ज्ञातुं शक्नुमः.
अत्र अभावः इति विषयः किन्तु सर्वे पदार्थाः स्वस्मिन् तादात्म्यसम्बन्धेन स्थितः अस्ति.
तादात्म्यसम्बन्धेन तत्र प्रतिपादित्वमस्ति, स्वस्मिन् एव कार्यकारणमस्ति इति वयं ज्ञातुं शक्नुमः.
अस्तु, इति तादात्म्यसम्बन्धविषयः परिचयः. अस्तु, परिचितः. अग्रे विद्या भगिनी पठति वा?
मनुष्यः अस्ति, अहं मनुष्यः, मम सम्बन्धं तादात्म्यमस्ति वा? मम
वक्तुं शक्नुमः, मनुष्यः मनुष्ये तादात्म्यसम्बन्धेन अस्ति.
कारणं किम् अस्ति महोदय?
इति उच्यते, इति नामकरणमस्ति.
घटे तु कपालः कारणं, मनुष्यः कारणं किम्?
पुनः वदतु.
घटः तु कपालः कारणमस्ति, मनुष्यः तु कारणं किम्?
अत्र कारणकारविषय अत्र मनुष्य तत्र नास्ति. कपालः घटं प्रति कारणमस्ति. कपालः स्वस्मिन् तादात्म्येन स्थित्वा समवायेन घटं जनयति, घटम् उत्पादयति. इति कपालः घटं प्रति कारणं, कपालः घटस्य कारणं.
मनुष्यः अवयव अवयवी इति सम्बन्धेन तत्र
कुत्र अत्र मनुष्यः अत्र मनुष्यः कथम् इति कथम् आगतः इति मया न अवगतः.
स्वस्य सम्बन्धः किम् इति तदपि तादात्म्यमेव. मनुष्यः स्वस्य सम्बन्धः,
मनुष्यः मनुष्ये तादात्म्यसम्बन्धेन अस्ति इति वक्तुं शक्नुमः. घटः सम्बन्धेन,
अन्यः मनुष्यः न, स्वस्य सम्बन्धः तादात्म्य
इति वक्तुं शक्नुमः. किन्तु किमर्थं न जानामि, किन्तु वक्तुं शक्नुमः.
अहमपि न जानामि, तत्र तादात्म्यसम्बन्धः इति वदति अतः पृच्छामि.
सत्यं सत्यं.
महोदय तर्हि अत्र
एकनिमिषम् एका वदतु कोऽपि कापि. किं भगिनि, विद्या भगिनी, किं
महोदय अत्र महोदय अत्र तादात्म्यसम्बन्धः इति यदि वदामः चेत् अहं मयि तादात्म्यसम्बन्धेन अस्मि, मयि यत् तादात्म्यसम्बन्धः यः सम्बन्धः अस्ति तत् सः सम्बन्धः तु भिन्नः खलु. प्रत्येकस्मिन् यः सम्बन्धः अस्ति सः सम्बन्धः, तर्हि भवती यत् यत् सम्बन्धः तादात्म्यसम्बन्धः सः सम्बन्धः अपि भिन्नः खलु.
आं, किञ्चित् भिन्नः एव, इतोपि यद्यपि पदार्थः भिन्नः किन्तु अत्र सम्बन्धस्य नामकरणं कृतं. कपालः स्वस्मिन् केन सम्बन्धेन अस्ति इति प्रश्नः अस्ति चेत् तादात्म्यसम्बन्धेन अस्ति इति उत्तरम्।
अहं मयि एतत् सर्वं तादात्म्यसम्बन्धः इति आत्मा इति रूपेण तत्र आगच्छति। अहं मयि, अहम् इत्युक्ते अहमेव, मयि इत्युक्ते मयि अहम् इति तस्मिन् अस्ति, मयि अहं मध्ये तस्मिन् अस्ति।
अत्र विषयान्तरम् अभवत् किन्तु अत्र पुस्तके विषयः अस्ति तत्रैव अग्रेसरेव यतोपि एकः परिच्छेदः अस्ति अन्योन्य अभावविषये, किन्तु भवन्तः यद् वदति तत्र तद्भिन्नविषयः, आत्मा मया इति भिन्नविषयः, तत्र विषये इदानीं मास्तु, तत् इदानीं पार्श्वे स्थापयामः आत्मविषये। अग्रे अत्र पदार्थविषये विद्या भगिनी पठति वा, सर्वेपि सर्वोपि पदार्थः,
सर्वोपि पदार्थः उक्तसम्बन्धेन स्वस्मिन् भवति, सम्बन्धेन घटः नास्ति इत्यभावः घटं विहाय जगत् भवति, अयमेव च भेदः, प्रतियोगिनं विहाय सः सर्वत्र भवति, एवं पटो न इति भेदः पटं प्रतियोगिनं विहाय भवति, अयमेव च भेदः अन्योन्य अभावः इति अभावविभागे चतुर्थः निर्दिष्टः, तल्लक्षणं च सङ्ग्रहपङ्क्तिव्याने निरूपयिष्यते। तत्र अन्योन्य अभावः कः इत्यस्मिन् विषये दत्तमस्ति। सर्वे अपि पदार्थः स्वस्मिन् तादात्म्यसम्बन्धेन भवति इति इदानीमेव वयं दृष्टवन्तः, तर्हि तेन तादात्म्यसम्बन्धेन घटः नास्ति इति अभावः अत्र घटं विहाय सर्वत्र भवति, अत्र तदेव अत्र भेदः इति वदामः, अत्र घटः पटः न इति चेत् घटः स्वस्मिन् तादात्म्येन अस्ति, तादृशसम्बन्धः पटे नास्ति इति कृत्वा घटः पटः न, तदेव भेदः, प्रतियोगिनं विहाय सः सर्वत्र भवति इत्युक्ते घटं विहाय तादृश अभावः जगति सर्वत्र भवति, एवमेव अत्र पटः न इति भेदः पटाभावः इति वदामः, तत्र पटं विहाय तादृश अभावः जगति सर्वत्र भवति, अयमेव भेदः अथवा अन्योन्य अभावः इति तस्य नामकरणमस्ति विभागे चतुर्थविधविभागः। अग्रे लक्षण तल्लक्षणसङ्ग्रहपङ्क्तिव्याख्याने अग्रे निरूपयामः, निरूपयिष्यते इति अस्ति अग्रे निरूप इति
पुस्तके अग्रे। अस्तु, कस्यापि प्रश्नः अस्ति वा एतावता? अत्र समयः जातः, अस्माभिः इतोपि ज्ञानविषयम् इति मम लिस्ट् मध्ये अस्ति, किन्तु समयाभावः अस्ति इति कृत्वा प्रायः अग्रिमे सप्ताहे तस्मिन् विषये चिन्तनीयं भवति, ज्ञानम् इति विषये। भवद्भिः पठितं वा ज्ञानं?
आम् महोदय, ज्ञानपर्यन्तं वयं प्राप्तवन्तः।
अस्तु अस्तु, तर्हि केवलं पठितं वा?
न पठितं, न पठितं,
न पठितं, ज्ञाने विषयता विषयता इति न पठितं।
रक्षाभगिन्याः वर्गे, रक्षाभगिन्याः वर्गे तु वयं पठितवन्तः।
अस्तु अस्तु अस्तु, इदानीं समयाभावः, अत्र स्थापयामः, कस्य प्रश्नः नास्ति चेत् स्थापयामः, आगामिसप्ताहे अग्रे ज्ञानविषये द्रष्टुं शक्नुमः। खलु,
धन्यवादः,
अस्तु
अस्तु, धन्यवादः, शुभरात्रिः,
धन्यवादः महोदय,
धन्यवादः।